अथ षोडशोऽध्यायः श्रीभगवानुवाच अभयम् सत्त्वसंशुद्धिः ज्ञानयोगव्यवस्थितिः दानं दमश्च यज्ञश्च स्वाध्यायः तप अहिंसा सत्यवक्रोधः त्यागः शान्तिरपैशूनम् दया भूतेषु अलोलुत्वम् मार्दवम् क्रीरचापलम् तेजक्षमा धृतिः शौचम् अद्रोहो नाति मानिता भवन्ति सम्पदं दैवीम् अभिजातस्य भारत
असत्यम् अप्रतिष्ठं ते
परस्पर सम्भूतम् किमन्यत् कामगैतुकम् एताम् दृष्टिम् अवश्यभ्य नष्टात्मानोऽल्पबुद्धयः प्रभवन्ति उग्रकर्माणः क्षयाय जगतो हिताः काममाश्रित्य दुष्पूरम् दम्भमानमदान्विताः मोहात् गृहीत्वा असद्राहान् प्रवर्तन्ते अशुचिव्रताः चिन्ताम् अपरिमेयाम् च प्रलयान्ताम् उपाश्रिताः कामोपभोगपरमाः एतावदिति निश्चिताः आशापाशशतैर्बद्धाः कामक्रोधपरायणाः ईहन्ते कामभोगार्थम् अन्यायेन अर्थसञ्चयान् इदमद्य मया लब्धम् इमं प्राप्स्ये मनोरथम् इदमस्ति इदमपि ये भविष्यति पुनः धनम् असौ मया हतशत्रुः हनिष्ये जापरानपि ईश्वरोऽहम् अहम् भोगी सिद्धोऽहम् बलवान् सुखी आढ्यो अभिजनवान् अस्मि कोऽन्योऽस्ति सदृशो अनेक चित्त विभ्रांता मोह जाल समावृता प्रसक्ता काम भोगेषु पतन्ति नरकेषु च आत्मसंभाविताः स्तब्धाः धनमान मदान्विताः यजन्ते नाम यज्ञैः ते दम्भेन अविधिपूर्वकम् संसारेषु नराधमान् क्षिपामि अजस्रम् अशुभान् आसुरीष्वेव योनिषु त्रिविधं नरकस्येदं द्वारं नाशनं आत्मनः कामः क्रोधः तथा लोभः तस्मात् एतत्त्रयं त्यजेत् विमुक्तः कौन्तेय तमोद्वारैः त्रिभिः नरः आचरति आत्मनश्येयः ततो याति परा यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः न स सिद्धिम् अवाप्नोति न सुखं न पराम गतिम्। तस्मात् शास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुम् इहार्हसि। तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे दैवासुरसम्पद्विभागयोगो नाम षोडशोऽध्यायः।